ओम अस्य श्री कीलक मंत्र स्यात् शिव ऋषि अनुष्टुप चंदः श्री महासरस्वती देवता श्री जगदम्बा प्रीत्यर्थं सप्तशति पाठांगत्वेन जपे विनियोगः ओम नमश्चंडिकायै। ओम मार्कंडेय उवाच। ओम विशुद्ध ज्ञान देहाय त्रिवेदी दिवजक्षुषे श्रेय प्राप्ति निमित्ताय नमः सोमार्धधारिणे सर्वमेतद्विजानीयान् मन्त्राणामभिकीलकम् सोऽभिक्षेममवाप्नोति सततं जाप्य तत्प्रः सिद्ध्यञ्जुच्चारणादीनि वस्तूनि सकलान्यपि एतेन स्तुवतां देवी स्तोत्रमात्रेण सिद्ध्यति। न मन्त्रो नौषधं तत्र न किञ्चिदपि विद्यते विना जाप्येन सिद्ध्येत सर्वमुच्चाटनादिकं समग्राण्यपि सिद्ध्यन्ति। लोकशङ्कामिमां हरः कृत्वा निमन्त्रयामास सर्वमेवमिदं शुभं स्तोत्रं वै चण्डिकायास्तु तच्च गुप्तं चकारसः समाप्तिर्न च पुण्यस्य तां यथावन्नियन्त्रणां सोऽपि क्षेममवाप्नोति सर्वमेव न संशयः। कृष्णायां वाचो दुर्दश्याम् अष्टम्यां वा समाहितः ददाति प्रतिगृह्णाति नान्यथैषा प्रसिद्ध्यति। इत्थं रूपेण कीलेन महादेवेन कीलितं यो निष्कीलां विधायीनां नित्यं जपति सस्फुटं ससद्धस्सगणसोऽपि गन्धर्वो जायते नरः न चैवाप्यटतस्तस्य भयं क्वापि हि जायते। नापमृत्युवशं याति मृतो मोक्षमवाप्न्यात् ज्ञात्वा प्रारभ्य कुर्वीत यकुर्वाणो विनश्यति ततो ज्ञात्वैव सम्पन्नमिदं प्रारभ्यते बुधैः। सौभाग्यादि च यत्किञ्चित् दृश्यते ललनाजने तत्सर्वं तत्प्रसादेन तेन जाप्यमिदं शुभं शनैस्तु जप्यमानेऽस्मिन् स्तोत्रे सम्पत्तिरुच्चकैः भवत्येव समग्रापि ततः प्रारभ्यमेव तत् ऐश्वर्यं यत्प्रसादेन सौभाग्यारोग्यसम्पदः शत्रुहानिः परो मोक्तः स्तुयते सा न किं जनैः। इति देव्याः कीलकं सम्पूर्णम्।